यस्य स्वयं सुरगुरुर्गरिमाम्बुराशेः स्तोत्रं सुविस्तृतमतिर्न विभुर्विधातुं तीर्थेश्वरस्य कमठस्मयधूमकेतोः तस्याहमेष किल संस्तवनं करिष्ये
सामान्यतोऽपि तव वर्णयितुं स्वरूपम् अस्मादृशः कथमधीश भवन्त्यधीशाः दृष्टोऽपि कौशिकशिशूर्यदिवादिवा
क्षयादनुभवन्नपि नाथमर्त्यो नूनं गुणान् गणयितुं न तव क्षमेत कल्पान्तवान्तपयसः प्रकटोऽपि यस्मान् मीयेत केन जलदेर्ननुरत्नराशिः
अभ्युद्यतोऽस्मि तव नाथ जडाशयोऽपि कर्तुं स्तवं लसद संख्यगुणाकरस्य बालोऽपि किं न निज बाहुयुगं वितत्य विस्तीर्णतां कथयति
ये योगिनामपि न यान्ति गुणास्तवेश वक्तुं कथं भवति तेषु ममावकाशः जाता तदेवमसमीक्षितकारितेयम् जल्पन्ति वा निजगिरा ननु पक्षिणोऽपि
आस्तामचिन्त्य महिमा जिनसंस्तवस्ते नामापि पाति भवतो भवतो जगन्ति तीव्रातपोपहत पन्थ जनन्निदाधे प्रीणाति पद्मसरसः सरसो निलोपि
रुद्वर्तिनि त्वयि विभो शिथिली भवन्ति
जन्तोः क्षणे अपि कर्मबन्धः सद्यो भुजङ्गममया इव मध्यभागम् अभ्यागतेव न शिखण्डिनि चन्दनस्य
तैस्त्वयि वीक्षितेऽपि प्रलायमानैः
त्वं तारको जिन कथं भविनां तैव त्वामुद्वहन्ति हृदयेन यदुत्तरन्तः यद्वा द्रुतिस्तरति यज्जलमेष नूनम् अन्तर्गतस्य मरुतः सकिलानुभाव
यस्मिन् हर प्रभृतयोऽपि हता प्रभावा सोऽपि त्वया रतिपतिः क्षपितः क्षणेन वेद्या पिता हुत भुजः पयसाथ येन पीतं न किं तदपि दुर्घरवाडवेन
स्वामिन्ननल्पगरिमाणमपि प्रपन्नः त्वाजन्तवः कथमहो हृदये दधान जन्मोदधिं लघुतरन्त्यतिलाघवेन चिन्त्यो न हन्त महतां यदि वा प्रभाव
क्रोधस्त्वया यदि विभो प्रथमं निरस्तो ध्वस्तास्तदा बत कथं किल कर्म चौराः लोषत्यमुत्र यदि वा शिशिरापि लोके नीलद्रुमाणि विपिनानि न किम्
जिन सदा परमात्मरूपम् अन्वेषयन्ति हृदयाम्बुजकोशदेशे पूतस्य निर्मलरुचेर्यदि वा किमन्यत् अक्षस्य सम्भवि पदं ननु कर्णिका
ध्यानाज्जिमेष भवतो भविन क्षणेन देहं विहाय परमात्मदशां व्रजन्ति तीव्रानला दुपलभावमपास्य लोके चिरादिवधातु भेदः अन्तः सदैव जिनयस्य विभाव्यसेत्वं भव्यैः कथं तदपि नाशयसे शरीरम् एतत् स्वरूपमथ मध्य यद्विग्रहं प्रशमयन्ति महा
ಪಾನೀಯಮಪ್ಯಮೃತಮಿತ್ಯನುಚಿಂತ್ಯ ಮಾನಂ ಕಿಂ ನಾಮನೋ ವಿಷವಿಕಾರಮಪಾಕರೋತಿ
ತ್ವಾಮೇವ ವೀತತಮಸಂ ಪರವಾದಿನೋಪಿ ನೂನಂ ವಿಭೋ ಹರಿಹರ ದಿಧಿಯಾ ಪ್ರಪನ್ನಃ ಕಿಂ ಕಾಚ ಕಾಮಲಿಭಿರೀಶ ಸಿತೋಪಿ ಶಂಖೋ ನೋ ಘೃಯ್ಯತೆ ವಿವಿಧ ವರ್ಣ ವಿಪರ್ಯಯೇಣ
ಧರ್ಮೋಪದೇಶ ಸಮಯೆ ಸವಿಧಾನುಭಾವಾತ್ ಆಸ್ತಾಂ ಜನೋ ಭವತಿ ತರುರಪ್ಯಶೋಕ ಅಭ್ಯುತ್
ಚಿತ್ರಂ ವಿಭೋ ಕಥಮ ವಾಂಗ್ಮುಖವೃಂತಮೇವ ವಿಶ್ವತ್ಪತತ್ಯ ವಿರಲಾ ಸುರಪುಷ್ಪವೃಷ್ಟಿಃ ತ್ವದ್ಗೋಚರೆ ಸುಮನಸಾಂ ಯದಿ ವಾ ಮುನೀಶ ಗಚ್ಛಂತಿ ನೂನಮಧ ಏವ ಹಿ ಬಂಧನಾನಿ
ಸ್ಥಾನೆ ಗಭೀರ ಹೃದಯೋ ದಧಿ ಸಂಭವಾಯ ಪೀಯೂಷತಾಂ ತವ ಗಿರ ಸಮುದೀರಯಂತಿ ಪೀತ್ವಾಯತಃ ಪರಮ ಸಮ್ಮದ ಸಂಗ ಭಾಜೋ ಭವ್ಯಾವ್ರಜಂತಿ ತರಸಾಪ್ಯ ಜರಾಮರತ್ವಂ
ಸ್ವಾಮಿನ್ ಸುದೂರಮವನಮ್ಯ ಸಮುತ್ಪತಂತೋ ಮನ್ಯೇ ವದಂತಿ ಶುಚಯಃ ಸುರಚಾಮರೌಘಾಃ ಯೇಸ್ಮೈ ನತಿಂ ವಿದಧತೆ ಮುನಿಪುಂಗವಾಯ ತೇನೂನಮೂರ್ಧ್ವಗತಯಃ ಖಲು ಶುದ್ಧಭಾವಾಃ ಶ್ಯಾಮಂ ಗಭೀರಗಿರಮುಜ್ವಲ ಹೇಮರತ್ನ ಸಿಂಹಾಸನಸ್ಥಮಿಹ ಭವ್ಯ ಶಿಖಂಡಿನಸ್ತ್ವಾಂ ಆಲೋಕಯಂತಿ ರಭಸೇನ ನದಂತಮುಚ್ಚೈಶ್ ಚಾಮೀಕರಾದ್ರಿಶಿರಸೀವನವಾಂಬುವಾಹಂ ಉದ್ಗಚ್ಛತಾ ತವ ಶಿತಿದ್ಯುತಿಮಂಡಲೇನ ಲುಪ್ತಚ್ಛದಚ್ಛವಿರಶೋಕತರೂರ್ವಭೂವ ಯತೋಪಿ ಯದಿ ವಾ ತವ ವೀತರಾಗ ನೀರಾಗತಾಂ ವ್ರಜತಿ ಕೋನ ಸಚೇತನೋಪಿ
ಭೋ ಭೋ ಪ್ರಮಾದಮ ವಧೂ
उद्योतितेषु भवता भुवनेषु नाथ तारान्वितो विदुरयं विहताधिकारः मुक्ता कलापकलितोच्छ्वसितात् पत्र व्याजात्रिधा धृततनुर्द्वमभ्युपेतः
स्वेन प्रपूरित जगत्त्रयपिण्डिते
रजो जिननमत्रिदशाधिपानाम् उत्सृज्यरत्नरचितानपि मौलिबन्धान् पादौ श्रयन्ति भवतो यदि वा परत्र त्वत्सङ्गमे सुमनसो नरमन्त एव
त्वं नाथ जन्म जलधेर्विपराङ्मुखोऽपि यत्तारयस्य सुमतो निजपृष्ठलग्ना युक्तं हि पार्थिव निपस्य सतस्तवैव चित्रं विभो यदसि कर्म विपाकशून्यः
विश्वेश्वरो जनपालकदुर्गतस्त्वम् किं वाक्षरप्रकृतिरप्यलिपिस्तमीश अज्ञानवत्यपि सदैव कथञ्चिदेव ज्ञानं त्वयि स्फुरति विश्वविकासहि
प्राग्भारसंभृतनभांसिरजांसिरोषात् उत्थापितानि कमठेन शठे स्तवननाथ हता हताशो ग्रस्तस्त्वमी विरयमेव परम् ఘోరదారం దైత్యేన ముక్తమథ దుస్తర వారిదధ్రే తేనైవ తస్య జిన దుస్తర
ఏవ భువనాధిపయే త్రిసంధ్యం ఆరాధయంతి విధివత్ విదుతాన్యకృత్యః భక్త్యుల్లసత్పులకపక్ష్మలదేహదేశాః పాదద్వయం తవ విభో భువి జన్మ భాజ
అస్మిన్న పార భవవారి నిధౌ మునీశ మన్యేన మే శ్రవణ గోచర తాం గతోసి ఆకర్ణితే తు తవ గోత్ర సమేతి
జన్మాంతరేపి తవ పాదయుగం న దేవ మన్యే మయా మహితమీహిత దాన దక్షం తేనేహ జన్ మని మునీశ పరా భవానా జాతో నికేతన మహం మథితాశయానా
నూనం నమోహ తిమిరావృత ప్రవిలోకితోసి మర్మా విధో విధురయంతి మామనథా రోద్యత్ ప్రబంధగతయః కథమన్యథైతే
మహితోపి నిరీక్షితోపి నూనం న చేతసి మయా విధృతోసి భక్త్యా జాతోస్మి తేన జనబాంధవ దుఃఖపాత్రం యస్మాత్ క్రియాః ప్రతిఫలం తిన భావ శూన్యా త్వం నాథ దుఃఖి జనవత్సలహే శరణ్య కారుణ్య పుణ్య వసతే వశినాం వరేణ్య భక్త్యానతే మయి మహేశ దయాం విధా
न तत्परतां विदेहि निसंख्य सार शरणं शरणं शरण्यम् आसाद्य सादितरिपु प्रथितावदातम् त्वत्पाद पंकजमपि प्रणिधान वंद्यो वद्योस्मि चेद्भुवन पावन हावतोस्मि
देवेंद्र वंद्य विदिताखिल
यद्यस्ति नाथ भवदंग्रि सरोरुहाणां भक्तेः फलं किमपि संतति संचिताया तन्मे त्वदेक शरणस्य शरण्य भूया स्वामी त्वमेव भुवनेत्र भवान्तरेपि
इत्थं समाहित धियो विधिवत् जिनेन्द्र सान्द्रोल्लसत् पुलक कंचुकितांग भागा त्वद्बिंब निर्मल मुखांबुजवद्दलक्षा ये संस्तवं तव विभो रचयन्ति भव्या जननयन चंद्र प्रभास्वरा स्वर्ग संपदो भुक्त्वा ते विगलितमलनिचया अचिरान् मोक्षं प्रपद्यन्ते